श्रीगुरुभ्यो नमः हरिः ॐ स्वस्तिनो मिमीतामश्विनाभगस्वस्तिदेव्यदितिरनर्वणः स्वस्ति पूषा असुरो दधातु नः स्वस्ति त्यावा पृथिवीषु चेतुना स्वस्तये वायुमुपप्रवामहै सोमं स्वस्ति भुवनस्य जस्पतिः बृहस्पतिं सर्वगणं स्वस्तये स्वस्तय आदित्य त्यासो भवन्तु नः विश्वे देवानो अत्या स्वस्तये वैश्वानरो वसुरग्निस्वस्तये देवा अवन् प्रभवस्वस्तये स्वस्तये स्वस्तिनो रुद्रः पात्वं हसः स्वस्तिमित्रावरुणा स्वस्तिपथ्ये रेवति स्वस्ति न इन्द्रश्चाग्निश्च स्वस्तिनो अदिते कृधि स्वस्ति पन्था मनुचरेम सूर्या चन्द्रमसा अविव पुनर्दधताग्नता जानता संगमे महि स्वस्त्यजनन्तार्क्षमरिष्टनेमिं महत् भूतं वाजसं देवतानाम् असुरघ्नमिन्द्रसखं समत्सु बृहत्यशो नावमिवारुहेम होमुचमाङ्गिरसङ्गजन् च स्वस्त्यात्रेयम् मनसा च तार्क्षम् प्रयतपाणिशरणं प्रपत्ये स्वस्ति संबाधे स्वभयन्नो अस्तु उच्चादिविदक्षिणावन्तो अस्थुर्ये अश्वदाः सहते सूर्येण हिरण्यदा अमृतत्वं भजन्ते वासोदासो मप्रतिरन्त आयुः इन्द्रावरुणा सोमनसमदृप्तं राजश् पोषं यजमानेषु धत्तम् प्रजां पुष्टिं भूतिमस्मासु धत्तं दीर्घायुत्वाय प्रतिरतन्न आयुः इमे भोजा अङ्गिरसो विरूपाधिवस्पुत्रासो असुरस्य वीराः विश्वामित्राय ददतो मघानि सहस्रसा वे प्रतिरन्त आयुः या गुङ्गुर्यासिनी वाली या राका या सरस्वती इन्द्राणि महव ऊतये वरुणानीं स्वस्तये दक्षिणाश्वं दक्षिणागां ददाति दक्षिणा चन्द्रमुतयत्तिरन्यम् दक्षिणान्नं वनुते यो न आत्मा दक्षिणां वर्म कृणुते सुजानम् यस्मै त्वं सुकृते जातवेद उलोकमग्ने कृणवस्योनम् अश्विनं सपुत्रिणं वीरवन्तं गोमन्तं रजिं नशते स्वस्ति वृष्टिं दिवस तथा रप्पवस्व सहस्रसावा जयुर्देववीतौ संसिन्धुभिः कलशे वावशानः समुश्रियाभिः प्रतिरन्न आयुः गोमायुरदाधजमायुरदात्पृश्निरदात्तरितो नो वसूनि गवां मण्डूकादतशतानि सहस्रसावे प्रतिरन् न आयुः पुनः पुनर्जायमाना पुराणी समानं वर्णमभिसुम्भमाना स्वग्नीव कृत् नुर्विज आमिनानामर्त्यस्य देवी रजयन्त्यायुः यशस्करं बलवन्तं प्रभुत्वन्तमेव राजाधिपतिर्बभूव सङ्कीर्णनागास् स्वमतिर्नराणां सुमङ्गल्यं सततं दीर्घमायुः द्रविणोदात्रविणसस्तुरस्य द्रविणोदास नरस्य प्रयं शत द्रविणोदा वीरवतीमिषन्नो द्रविणोदारासते दीर्घमायुः हरिः ॐ।